هما سكرين الشات يسببها.
يس.
So as usual, we'll do a bit of a recap of what we did last class, and and see how we can actually apply it. Adau Mangala Shloka. Yena Akshara Samam Nayam Adhigamya Maheshwarat Sukshnam Vyakaranam Proktam Tasmai Paninaye Namaha Vakyakaram Vararuchim Bhashyakaram Patanjalim Paninim Sutrakarancha Pranatosmi Munitrayam Munitrayam Namaskritya Tadukti Paribhavyaja Vaiyakarana Siddhanta Kaumudiyam Vidachyate. Yeah, so I think I need to do a bit lengthier recap this time. Last class actually covered a lot of things and maybe I was a bit fast. So I'll just do a recap and see how much you all got done. Basically, there are two aspects to studying the Kaumudi or the sutras. One is to know how to apply them in any given situation, and the other is to know how the sutra has to be interpreted. It is basically, you can say it is like a theoretical part and the practical part of it. So if you are looking at what the sutras we studied last class, which is Halantim, Adirantena Saheta, and Upadesha Yajnanasikaita, one major part is knowing where you apply those sutras. Where does Halantyam apply and what is its consequence? And of course, the second thing is to know, I mean, you say the meaning of Halantyam is the ending consonant becomes it. So to know how actually you got those meanings. So that in the future, if you are given a sutra, you are able to interpret it correctly. इदानीम् अस्माभिः सूत्रत्रयम् अधीतम् अस्ति हलन्त्यम् आदिरन्त्येन सहेत उपदेशे अजननासिक इति कः अर्थः प्रत्येकं सूत्रस्य इति चेत् हलन्त्यम् इति सूत्रेण किम् उच्यते उपदेशे अन्त्यं हल इति स्यात् उपदेशे उपदेशः नाम अद्योच्चारणम् इत्युक्तम् अर्थात् पाणिनेः अथवा मुनित्रयस्य प्रथमं यदुच्चारणं तदेव उपदेशः इत्युच्यते अर्थात् धातौ प्रत्यये प्रत्याह सूत्रेषु सर्वत्र अन्तिमः हल् व्यञ्जनवर्णः इत् सम्यकः भवति इति तस्य अर्थः इत् इति काचन संज्ञा वैयाकरणानां विशिष्टा संज्ञा इति यः हल् वर्णः अन्त्ये भवति तस्य इत् संज्ञा भवति इति हलन्त्यम् इति सूत्रेण ज्ञायते ततः आदिरन्त्येन सहेत आदिः अन्त्येन इता सह मध्यगानां स्वस्य च संज्ञा स्यात् आदिः कश्चन वर्णः यः कोऽपि वर्णः भवितुम् अर्हति प्रत्याहारे अन्त्येन इता सह किन्तु अन्त्यवर्णस्तु इत्सम्यक एव भवेत् अन्त्ये इत्सम्यकः वर्णः अस्ति चेत् तेन सह कश्चन वर्णः प्रयुज्यते सः मध्यगानां स्वस्य च संज्ञा स्यात् मध्ये ये ये वर्णाः भवन्ति तेषां स्वस्य इत्युक्ते आदिमवर्णस्य च संज्ञा भवति इति द्वितीयसूत्रेण उच्यते इदमेव सूत्रम् आदिरन्त्येन सहेत इति सूत्रेणैव प्रत्याहारस्य स्वरूपं किम् इति अस्माभिः ज्ञायते यद्यपि प्रत्याहारः इति पदं पाणिनिना नोपयुक्तं तथापि प्रत्याहारकरणम् अनेनैव सूत्रेण हलन्त्यम् इति इत्संज्ञाविधायकम् एकं सूत्रम् अपरं सूत्रमस्ति उपदेशे अजनुनासिक इति हलन्त्यम् इत्यनेन अन्त्ये हल् भवति चेत् इत्संज्ञा विधीयते उपदेशे अजनुनासिकैत इत्यनेन अच् स्वरस्य यत्र कुत्रापि अन्ते एव भवेदिति नियमः नास्ति कुत्रचित् विद्यमानस्य स्वरस्य अनुना इत् संज्ञा भवति कदा भवति सः स्वरः अनुनासिकः भवति चेत् भवति इदानीम् एतेषां सूत्राणाम् उपयोगः क्व इति चेत् प्रत्याहारकरणे अस्माभिः माहेश्वरसूत्राणि अधीतानि तेषु माहेश्वरसूत्रेषु एतेषां प्रयोगः कथम् इति ज्ञातव्यं ज्ञातं वस्तुतः सर्वत्र चतुर्दशसूत्राणि सन्ति परन्तु मया उक्तमासीत् सर्वेभ्यः प्रत्याहाराः ये सन्ति तेषां वर्णानां निर्धारणं कृत्वा आगच्छन्तु इति इदं तथा कृतं होम्वर्क् अस्ति तदेव दर्श्यते मया कलिवरदन् महाभागेन खलु कृतं तेन कृतमिदम् इदानीम् एतदुपयुज्यैव पश्यामः कस्य कस्य प्रत्याहारस्य उपयोगः भवति इति आदौ माहेश्वराणि सूत्राणि सन्ति सर्वेषु सूत्रेषु अन्तिमवर्णस्य न क च ट न म ञ ष ष व य र ल इत्येतेषां वर्णानां हलन्त्यम् इति सूत्रेण इत् संज्ञा दत्ता ततः कस्यापि वर्णस्य अकारस्य णकारेण अकारस्य णकारेण एकारस्य चकारेण एवं येन केनापि प्रकारेण प्रत्याहाराः कर्तुं शक्याः वस्तुतः बहवः प्रत्याहाराः निर्मातुं शक्याः एवमेव राण्डम्लि अकारस्य णकारेण इकारस्य णकारेण एवम् अकार ककार ईक् ऊक् ऋक् एवं सर्वैः वर्णैः सह प्रत्याहाराः निर्मातुं शक्याः किन्तु व्याकरणशास्त्रे ये ये प्रत्याहाराः पाणिनिना उपयुक्ताः तेषामेव अस्माभिः अर्थनिर्णयः कार्यः वि केन् डु ऐ होप् इट् इस् क्लियर् टु एव्रिबडि हौ वि आर् यू डूयिङ्ग् द प्रत्याहार यूसिङ्ग् टु सूत्रास् त्री सूत्रास् द टु मेजर् सूत्रास् आर् वन् इस् हलन्त्यम् विच् गिव्स् द इत् संज्ञा टु एनी कान्सनेण्ट् विच् इस् अट् द एण्डिङ्ग् एण्ड् आदिरन्त्येन सहेत विच् डिस्क्रैब्स् हौ टु क्रियेट् अ प्रत्याहार How do you create a pratyahara? You take any of these itsamya letters, the ending letters, and join them with any varna which is before that. That is, you cannot join a na with say a. It has to come before, adihi. So, you can join this na with a letter which comes before that, and you get a pratyahara. Say, if you join na with a, you get an as the pratyahara. What is the an abbreviation for? For whatever falls in between. E and O and also for itself, which is A. So, AN means A, E, U. This is by the sutra, Adirantena Saheta. Using this, as in using Adirantena Saheta, you can create a number of pratyaharas. Like, you can join, I mean, theoretically, you can join this L, the last L in HAL, with all letters which precede it. Okay, and creating pratyaharas. But Panini has not used all such pratyaharas. He has used only a limited number of pratyaharas. That is the list which is given in the Bala Manorama as 44. It is only 44 pratyaharas which have been used by Panini in any of his sutras or in a couple of cases by Vararuchi in his Vastikas. We consider only those as the pratyaharas. Any other combination of letters would give an abbreviation, but we do not refer to them as pratyaharas. Pratyaharas are only those which have been used by Panini or Katyayana. Okay. So coming to your homework, there were list of pratyaharas given in the Bala Manorama, which is already solved. But before looking at it, I'd just like to speak with all of you and see how you are getting on. So, each of you will just solve one pratyahara. Tell which is the next pratyahara and give the words of those pratyahara. Give the letters which are included in that pratyahara. So, one second, I'll open my attendee list. Sorry, the file which I am showing was done by Vasudevan ji, Vasu Vasudevan, and that is the one which I am using now, but we'll see. I'll unmute each of you in turn, so you can just tell me which is the next pratyahara and then give me what are the letters. If you can speak in Sanskrit, it would be nice, so that I can know it. Hiralal ji?
Yes. Yes, speaking.
So can you tell me the first pratyahara? Could you, you have the Bala Manorama, right?
Yeah.
So the first pratyahara is?
Pratyahara.
Correct. An is the first pratyahara. Yeah. So the letters in an are a, e and u. Right. So you can hear me clearly? Any problem?
Yeah, yeah. Very nice.
So the next one. So I just want you to notice that the first nakara, that is the nakara in ayum, has only one pratyahara associated with this, which is an. Though in is also theoretically possible, that is e and u could be covered by in, but Panini prefers to tell them separately as yoho or eu, etc. So he does not use the pratyahara in for telling e and u. So the only pratyahara, there is only one pratyahara which can be made with this nakara, which is an. Okay. Hari Om. Kalivaradhan Mahabhaga.
Hamji.
Hello.
Hello.
Shruyate khalu.
Shruyate va.
अहम्
एकत्रिंशत् प्रत्याहारः प्रतिपस्ते लिखितवान् अन् इति हीरालजी उक्तवान् तदपि अहं लिखितं मया लिखितम् अनन्तरम् अहं लिखितवान् अक् इति प्रत्याहारः अ इ उ ऋ ल सर्वम् ऐ मीन् स्वराक्षराणि सर्वं तत्र भवति
एते वर्णाः अ इ उ ऋ ल इति पञ्चवर्णाः अक् इति प्रत्याहारे अन्तर्भूतानि भवन्ति अस्तु धन्यवादः किरण् महोदय ललिता Lalita?
Can you hear me?
I can hear you, but it's very low. The voice is very, very low. Hello? Ha. Adrimaha Pratyahara?
Ach Pratyahara.
Ach Nasti. Akkityantaram. Ikkiti Bhavet. इक् प्रत्याहारे के के वर्णाः सन्ति इक् इति प्रसिद्धः प्रत्याहारः इको एणचि इति सूत्रे अपि अस्ति इ उ ऋ ऋ इत्येतेषां वर्णानां प्रत्याहारः धन्यवादाः मोहन
उक् इति प्रत्याहारे उ ऋ लृ इति वर्णाः अन्तर्भवन्ति
उक् इति अग्रिमः प्रत्याहारः एवम् अनेन ककारेण सह ऋलृक् इत्यत्र यः ककारः तेन सह त्रयः प्रत्याहाराः सम्भवन्ति अक् इक् तथा उक् इति धन्यवादः कापि समस्या नास्ति खलु मोहन श्रूयते सम्यक् सम्यक् श्रूयते खलु मया यदुच्यते ओके नि नियमि क्रियलि
Yeah, I hear you well.
Okay. Asma, mommy?
Ing.
Ing.
Ha.
Ing is a prasya.
A-O, A-O, iti akshara. Akshara.
Ha. A-O, iti varnadvaya mantarbhavati, ing prasya hara. Priya?
Yes.
Hello?
Hello?
Is Priya?
Yes, yes.
Can you tell me which are the pratyaharas with the letter Ch? How many pratyaharas can you make with Ch and which are they?
With Ch, Ach, Ich, Ha. H, Ha. Ich.
चत्वारः प्रत्याहाराः चकारेण सह
अच् शुड् ऐ से अच् अच् इस् आ ई उ र ऋ ए ओ ऐ औ
इच्
इच् इस् ई उ ऋ ऋ ए ओ ऐ औ
एच्
ए ओ ऐ औ एण्ड् ऐच् इस् ऐ औ
सो चकारेण चत्वारः प्रत्याहारः तत्र अच् इति सर्वेषां स्वराणां प्रत्याहारः ततः अन्यप्रत्याहाराः सन्ति राहुल् can you hear me? Is your microphone not working?
नमस्ते
नमस्ते तकारेण सह के के प्रत्याहाराः सम्भवन्ति
तकारेण सह
हयवरट् इत्यत्र तकारः
हयवरट्
देर् इस् अ तकार इन् हयवरट् हौ मेनि pratyahara can you make with that
no. one may say according to bala manorama or
according to bala manorama how many at is there
no at form yeah
at
takarena okay yeah I have at
at pratyahare ke ke varnaha
At, at is
there. What are the letters in at?
At, at all the vowels and semi vowels. I won't kill you. Yeah, warm, I won't, I won't.
Yeah, the N and all are not included. So it is A, E, U, R, R, A, O, I, O, and Hayavara. Okay. Sharada?
Okay. One second. Takarena? Hello?
Takarena, hello.
Hello? Can you hear me, my voice?
Yeah, I can hear you. Can you not hear me?
Yes. So, Takarena?
The ta we did ta.
Yes.
So the next with nu, the nu of lun, how many pratyaharas with nu?
An.
There is one an.
In.
Hmm.
We can do an, in, un, and last a. One second. In, hello.
Tell me.
In an, a, e, u, and r, r, a, o, I, ouch, haya, haya, va, ra, la. Hello? Hello?
Correct. Hello?
Correct?
Yeah, yeah, correct. In the same letters without ha, there is no un. There is no pratyahara un which is used by Pani. Next is yen. What is yen?
Ya-va-ra-la.
Okay, fine. So there are three pratyaharas with nakara. Nakarena saha. Lannityatrayaha nakaraha. Tena saha. Trayaha pratyaharaha sambhavanti. An, in, katha, la, yen. Agre, yamangananam ityatra makaraha. Shilpa? Shilpa?
you hear me? Namaste.
Yeah, I can hear you.
The next pratyahara is am.
Am.
The letters in am pratyahara are a, e, u, ru, rlu, a, o, I, au, ha, ya, va, ra, la, ni, ma, ra, na, na.
Any other?
Yeah, possible or like we can use all the letters with ending
na. No, but any other which are used by Pani?
Im.
Im is not used by Pani. There is yam. Yam with the hayavarat. The
ya
of hayavarat. Yam. There is nyam with the nya of nyamagananam.
Mm-hmm.
And there is nyam with the nga of the same. Nganana. Ngam.
Okay.
There is a ngamo hraswarachi ngamo nishya.
Okay.
So it has three letters. Ngam is three letters. Nga na na. Nyam is five letters. Nyama nga na na. And yam is yavarala nyama nga na.
Okay.
So there are four pratyaharas with ma.
Okay.
Vasudhi? भवद्भिः एव एतत् सर्वं कृतम् अतः धन्यवादाः आदौ झभै इत्यत्र ञकारेण के प्रत्याहाराः
ञम्
ञकारेण के प्रत्याहाराः सम्भवन्ति झभै
Nyam?
No, Nyam is the mu of Yamangananam.
Yeah.
So what are the pratyaharas which end with the jhabai?
End with, yes, I'm sorry.
End
yay?
With Yam.
Yay.
Yay.
Yay is the only one I see. Ya?
Yeah.
Va?
There is only one pratyahara. Hmm.
Yeah. Hmm. Ya, va, ra, la, nya, ma, na, Na, ja,
na, ja,
va. I think there is a typo in there. I meant the na, the karana.
Yamanganana. Right, no problem. Ravi?
Yes.
Next with the shud of Bhairagat.
So the book says Shakarena Dvau, Jhash and Bhash. So Jhash is Jhabha, Ghadha, Dha. And Bhash is Bha, Ghadha, Dha.
Shakarena Dvau Pratyaharo, Jhash, Bhash, Keti.
Yeah, with the Talavya Shakara we have six. Ash, Hash, Vash, Jash, Jash and Bash. And Ash has all the vowels A, E, U, R, L, A, O, I, Au. And then the vyanjanas Ha, Ya, Va, Ra, La, Nya, Ma, Nga, Na, Na. Jha, bha, gha, dha, dha, ja, bha, gha, da, da.
Okay, so the rest you know. The rest are hush.
Hush? Hush is...
It's okay, I mean. Hush, vash, jhash, jash, and bash, right? So, I think everybody had a chance.
हम लिखितवान् अपि स्वराक्षराणां मध्ये दीर्घस्वराणाम् अपि सङ्गृह्यते वा?
दीर्घस्वराः अपि सङ्गृह्यन्ते, कथमिति अनन्तरं पश्यामः. वर्णमालायां शिवसूत्रेषु तु ह्रस्वस्वराः एव पठिताः, तैरेव दीर्घाणां प्लुतानां सर्वेषां वर्णानां सङ्ग्रहः भविष्यति. Okay, we'll continue and see what this was. Yatha drishtam, and iti nakarena eka eva pratyaharaha, a e u, kakarena prayaha, ak ik uk, nakarena ekaha, ein, chakarena tatvaraha, at it et, katha aich, akarena ekaha, eka eva at iti. पुनः नकारः लण् सूत्रे यः नकारः तेन सह त्रयः प्रत्याहाराः अण् इन् तथा यण् मकारेण न्यमननम् इत्यत्र मकारेण सह चत्वारः प्रत्याहाराः अम् यम् ञम् ङम् ञकन सह जभै इत्यत्र यः ञकारः तेन यञ् इति एकः प्रत्याहारः षकारेण मूर्धन्यषकारेण अयं यः षकारः अस्ति सः मूर्धन्यषकारः इत्युच्यते अग्रे ज्ञायते यतोहि अस्य स्थानं मूर्धा अयं शकारः तालव्यशकारः यतोहि तस्य स्थानं ताल् मूर्धन्यशकारेण सह द्वौ प्रत्याहारौ झष् तथा भष् तालव्यशकारेण सह षट् प्रत्याहाराः अश् हष् वश् झष् झष् तथा भष् वकारेण सह एकः प्रत्याहारः छव् इति यकारेण पञ्चप्रत्याहाराः यै मै झै खै तथा त्वै रेफेण सह चत्वारः यर् झर् खर् चर् अन्तिमलकारेण सह हल् इत्यत्र यः लकारः तेन सह षट् प्रत्याहाराः अल् हल् वल् रल् छल् शल् एवं चतुर्दशमाहेश्वरसूत्रेषु अन्त्याक्षराणां हलन्त्यम् इति सूत्रेण इत्संज्ञायां प्राप्तायाम् एताः एते प्रत्याहाराः त्रयश्चत्वारिंशत् प्रत्याहाराः सम्भवन्ति. अन्यः एकः प्रत्याहारः अस्ति रप्रत्याहारः. र इति लण् इति सूत्रे यः अकारः दीक्षितैः आदौ उक्तम् इति माहेश्वराणि सूत्राणि अणादिसंज्ञार्थानि एषाम् अन्त्या इतः लण् सूत्रे अकारश्च. लण् सूत्रे यः अकारः तस्यापि इत्संज्ञा अस्ति. केन सूत्रेण? उपदेशे अदनुनासिक इत् उपदेशे अनुनासिकः अति इत्संज्ञः भवति. अत एव अत्र दर्शितमस्ति अकारस्य अनुनासिकत्वम् अस्ति. अनुनासिकत्वात् सः इत्संज्ञकः भवति. तेन सह रेफस्य हयवरट् इत्यत्र यः रेफः तस्य प्रत्याहारे कृते र इति प्रत्याहारः सम्भवति. तत्र वर्णद्वयं सङ्गृहीतं भवति रेफः लकारश्चेति. एवम् आहत्य चतुश्चत्वारिंशत् प्रत्याहाराः आचार्यैः व्याकरणशास्त्रे प्रयुक्ताः. इदानीम् अस्माभिः सूत्राणां प्रयोगः क्व इति ज्ञातम्. इदानीं सूत्राणाम् अर्थः, यः अर्थः अस्माभिः उक्तः सः कथं ज्ञातः इत्यपि किञ्चित् द्रष्टव्यमस्ति. यथा हलन्त्यं, प्रथमं सूत्रं भवति हलन्त्यम्. तत्र पदद्वयमस्ति, छेदः कथं हल् अन्त्यम्. पूर्वसूत्रा तु अनुवर्तते, अनुवृत्तिः नाम अस्मिन् सूत्रे यत् पदं न दृश्यते तत् पूर्वसूत्रात् आनीयते, स एव अनुवृत्तिः इति उच्यते. अत्र पदद्वयस्य अनुवृत्तिः अस्ति, उपदेशे तथा इत्. उपदेशे अधुनासिक इत् इति पूर्वस्मात् सूत्रात् पदद्वयम् अनुवर्तते, उपदेशे इति इत् इति च. आहत्य उपदेशे अन्त्यं हल इत् स्यात् इति अर्थः लब्धः. अत्र किमपि नास्ति, उपदेशः नाम कः इति सन्देहे जाते आद्योच्चारणम् इति ज्ञातम्. आदिरन्त्येन सहेत इत्यत्र किमपि अनुवृत्तिः नास्ति, चत्वारि पदानि सन्ति. आदिः अन्त्येन इता सह इति अन्त्येन इता सहितः आदिः इति अर्थः लब्धः. मध्यगानाम् इति कथं लब्धम्? आदिः नाम किम्? यस्मात् पूर्वं नास्ति परमस्ति सः आदिः, अन्त्यं नाम यस्मात् परं नास्ति पूर्वमस्ति सः अन्त्यः. When you say Adi and Antya, they automatically imply that there is something in between. So, just by using the words Adi and Antya, Panini has conveyed that there is something in between, for which these are an affiliation. And Purva Sutra Masti Svam Rupam Shabdasya Ashabda Samya Iti Tasmat Sutra Svam Iti Anuvartate Anuvartasya Svasya Samya Bhavati. It is Adehe Api Grahanam Bhavati Adirantena Saheta. यदा अन्त्येन इत्संज्ञकेन वर्णेन सह आदिः उच्चारितः तदा मध्यगानां ग्रहणं भवति, स्वस्य आदेहरपि ग्रहणं भवति इति सूत्रार्थः. सूत्रमस्ति उपदेशे अजनुनासिक इद. अत्रापि चत्वारि पदानि सन्ति. उपदेशे अच् अनुनासिकः इद. अनुवृत्तिः किमपि नास्ति. सूत्रस्य अर्थस्तु बहु स्पष्टमस्ति. उपदेशे अनुनासिकः अच् इत्संज्ञः स्यात्. अच्वर्णः नाम स्वरः कश्चन अनुनासिकः भवति चेत् तस्य इत् इति संज्ञा भवति. किन्तु तदा अस्माकं प्रश्नमासीत् कथं ज्ञायते अनुनासिकत्वं. हौ डु वि नो इफ् एन् अच् इस् अनुनासिक आर् नाट्? बिकास् इन् प्राक्टिस् टुडे इन् स्पोकन् संस्कृत् वि डु नाट् हाव् अ डिस्टिङ्क्षन् बिट्वीन् अनुनासिक एण्ड् अननुनासिक. We speak everything the same. In the Vedas, you have a differentiation of Anunasika and Anunasika. But in today's spoken Sanskrit, you do not have for the Swaras. That is, you do not distinguish the Anunasika Swaras and Anunasika Swaras. So, the question is, how will you know if a Swara is Anunasika or not? Then, the reply is, Pratigya Anunasikyaha Paniniyaha. Panini Shishyaha Pratigyaya Anunasikyam Jananti. अर्थात् गुरुपरम्परया गुरुः प्रतिजानीते अत्र अयं वर्णः अनुनासिकः इति, तद्वयम् अनुनासिकम् इति स्वीकुर्मः. अत एव दीक्षितैः प्रतिज्ञातम् आदौ. लण् सूत्रे अकारः अनुनासिकः. अनुनासिकः नाम तेन सह तस्य इत्संज्ञा भवति. इत्संज्ञायां सत्यां प्रत्याहारः भवति. कश्चन प्रश्नः अस्ति. रप्रत्याहारः इति उक्तं रेफस्य अकारेण सह प्रत्याहारः इति. षडगोपन् महोदयः पृच्छति तत्र दीर्घः भवेत् खलु इति. तेनैव उत्तरमपि दत्तमस्ति. र इत्यनेन सह अ इत्येतत् भवति चेत् मिलित्वा सवर्णदीर्घः भवति चेत् दीर्घः भवेत् खलु इति. तेनैव उत्तरमपि दत्तमस्ति. तत्र र इत्यत्र अकारः उच्चारणार्थः, हकारादिषु अकारः उच्चारणार्थः, अतः केवलं रेफेण सह अप्रत्याहारः आहत्य र इति भवति. इदानीं अद्यतनं पाठं पश्यामः. उपदेशे अजनुनासिक. प्रत्याहारेषु इताम् अनग्रहणम् अनुनासिकः इत्यादि निर्देशः. प्रत्याहाराः सन्ति. इदानीम् अच् इति प्रत्याहारः अस्ति. किम् उक्तम्? आदिः अन्त्येन सहेत. अन्त्येन इता सहितः आदिः मध्यगानां स्वस्य च संज्ञा भवति. मध्यगाः इत्युक्ते के के? इ उ न ऋ ल क ए ओ ङ. एते वर्णाः. अयोन् इत्यत्रयः णकारः, ऋलृक् इत्यत्रयः ककारः, एवोन् इत्यत्रयः नकारः. ते अपि मध्यगा एव. दे आल्सो फाल् इन् बिट्वीन् अ एण्ड् छ. द सूत्र आदिरन्तेन सहेता टोल्ड् दट् इफ् यु जायिन् अ बिगिनिङ्ग् लेटर् वित् अन् इत्संज्ञा लेटर् इट् टेक् एव्रिथिङ्ग् विच् कम्स् इन् बिट्वीन्. द न क एण्ड् छ आर् आल्सो फालिङ्ग् इन् बिट्वीन्. So, do we consider them while making a pratyahara or not? The answer is not. No. Pratyahareshu itam na grahanam. Ye itsamyakaha varanaha tesham grahanam na bhavati pratyahareshu. Achityatra nakarasyava kakarasyava grahanam nasti. Katham nyayate anunasikaha ityadi nirdesha. अस्मिन् सूत्रे एव पाणिनिना उपदेशे अद् अनुनासिक इति प्रयोगः कृतः. अत्र न हि अत्र ककारे परे अच्कार्यं दृश्यते. अत्र पश्यतु अनुनासिक इति पदम् अनुनास इक इति अस्ति. इदानीं यदि अच् इति प्रत्याहारे ककारस्य इत्सम्यकस्य ककारस्यापि ग्रहणं स्यात्, यदि ककारस्य अच् प्रत्याहारे अन्तर्भावः स्यात् तर्हि किम् इको यणति, इकः अचि परे यण् स्यात् इति सूत्रम् अस्ति. If an ik is followed by an ach, there will be yan sandhi. If you say that the itsamya letters are also included in a pratyahara, the k becomes ik ach. Ayun will rik ityatra kakaraha achsamyam prapnoti. Achi pare, when followed by ach, purvasya ikaha, ikarasya, yakaraha adeshaha bhavati. By using iko yanachi, the e will get converted to u. Then, there is a sutra called Lopo Vyorvali. Lopo Vyorvali iti ekam sutram asti. Vakara yakara yoho valipare lopahasyadeti. Tena yakarasya lope sati anunas kaha iti rupam syat. If the itsamya letter is also considered in the pratyahara, then the actual rupa should have been anunaska and not anunasika. But Panini himself has used the word anunasika, which means it's by which he is telling you indirectly that the k is not ach, which means the itsamya letters are not considered in the pratyahara. This applies everywhere. Whatever is the itsamya letter in each sutra, ayun, ril, rik, etc., they are not considered while doing the pratyahara. Only the actual letters are considered. Pratyahareshu itam nagrahanam anunasikaha ityadi nirdeshat. नहि अत्र ककारे परे अच्कार्यं दृश्यते. आदिरन्त्येन सहेता इत्येतत् सूत्रेण कृताः संज्ञाः प्रत्याहारशब्देन व्यवह्रियन्ते. प्रत्याहारः इति पदं पाणिनिना न उपयुक्तम्. आदिरन्त्येन सहेता इत्यत्रापि यद्यपि तत् सूत्रं संज्ञाप्रकरणे अस्ति तथापि पाणिनिः संज्ञां न निर्दिशति. यथा वृद्धिरादै इत्यत्र वृद्धिः इति संज्ञा निर्दिष्टा. उपदेशे अजननासिक इत् इत्यत्र इत् इति संज्ञा निर्दिष्टा, तथा अत्र नास्ति. आदिरन्त्येन सहेता इत्यनेन प्रत्याहारस्य स्वरूपमेव निर्दिशति. प्रत्याहारः इति पदं पाणिनिना नोपयुक्तम्. किन्तु पूर्वैः आचार्यैः अपि उपयुक्तः सः प्रत्याहारः अस्माभिरपि स्वीक्रियते. इत्येतत् सूत्रेण कृताः संज्ञाः प्रत्याहारशब्देन व्यवह्रियन्ते. यद्यपि पाणिनिना नोक्तं तथापि वि यूस् द संज्ञा प्रत्याहार विच् वास् यूस्ड् बै अर्लियर् आचार्यास् एण्ड् विच् इस् बीङ्ग् यूस्ड् इन् द पाणिनीयपरम्परा. कः अर्थः प्रत्याहारशब्दस्य? प्रत्याह्रियन्ते, संक्षिप्यन्ते वर्णाः इति प्रत्याहारः. प्रत्याहारः नाम यत्र वर्णाः संक्षिप्यन्ते. संक्षेप अब्रिवियेशन् प्रत्याहार इस् दट् विच् अब्रिवियेट्स् द लेटर्स्. An abbreviates three letters, which is A, E, U. Al would abbreviate all six plus three, nine plus 33, some 42 letters. Al is an abbreviation for the entire set of the Varnamala. So like this, Pratyahara is an abbreviation. Pratyahriyante, Sankshiptyante, Varnaha, it is Pratyahara. So this is about pratyahara. Next you have the question which came earlier. What about dirghas and sutras? We are saying Maheshwara sutras encompass all letters in the Varnamala, but you do not see the dirgha. There is no dirgha akara, there is no dirgha ikara. So what happened to those letters? They are still there. They are used in the language. So where are they? Yes, that's the next sutra answers that. I do not have type notes for the next one. So please refer your books. I'll explain whatever is there in your book. While uploading this file, I'll see if anything needs to be put up, I'll put up. So now I'm stopping my screen. As in, I won't share my screen. Just look at your books and we'll read the next sutra. अग्रिमं सूत्रं भवति ऊकालो झस्व दीर्घप्लुतः ऊकालो झस्व दीर्घप्लुतः कथं छेदः ऊकालः अच ह्रस्व दीर्घप्लुतः इति छेदः पदच्छेदः ऊकालः अच ह्रस्व दीर्घप्लुतः सूत्रार्थः कथं लिखितः उष्ट ऊष्ट ऊष्ट वः वाम कालः इव कालः यस्य सः अच क्रमात् ह्रस्व दीर्घप्लुतसंज्ञः स्यात् इति सूत्रार्थः ऊकालः इत्यस्ति अच इत्यस्ति ह्रस्व दीर्घप्लुतः अच्वर्णाः के अच्वर्णाः प्रत्याहारेण लब्धाः अ इ उ ऋ ऋ ए ओ ऐ औ इत्येते वर्णाः ह्रस्व दीर्घ प्लुत इति संज्ञात्रयं प्राप्नुवन्ति देगेट् त्री संज्ञा कॉल्ड वन इज कॉल्ड ह्रस्व वन इज कॉल्ड दीर्घ एंड वन इज कॉल्ड प्लुत वेन ऊकालः द वर्ड ऊकाल हाउ डू यू स्प्लिट ऊकाल फर्स्ट हाउ डू यू स्प्लिट ऊ द वर्ड ऊ फर्स्ट यू डू ऊ प्लस ऊ ह्रस्व उकारः प्लस दीर्घ उकारः अकस्वर्णे दीर्घः इत्यनेन तस्य दीर्घादेशे सति ऊ इत्येव शिष्यते इदानीं दीर्घ ऊकारस्य प्लुत ऊकारेण सह पुनः सवर्णदीर्घे सति पुनः दीर्घ एव शिष्यते वाट् यु हाव् इस् उ प्लस् ऊ प्लस् ऊ ह्रस्व दीर्घ प्लुत सर्वे जानन्ति इति मन्ये ह्रस्वः नाम एकमात्रो भवेद् ह्रस्वः द्विमात्रो दीर्घ उच्यते द्विमात्रस्तु प्लुतो ज्ञेयः एकमात्रः एनी लेटर् दिस् इस् द जनरल् डेफिनेशन् ऐ मीन् वाट् पाणिनि इस् डूयिङ्ग् इस् डिफैनिङ्ग् इट् बट् द जनरल् डेफिनेशन् इस् एनी लेटर् विच् इस् प्रनौन्स्ड् इन् द टैम् ग्याप् आफ् वन् मात्रा वन् मात्रा इस् द टैम् टेकन् टु से अ आर् उ दट् इस् कॉल्ड् ह्रस्व डबल् द टैम् इस् दीर्घ एण्ड् त्री टैम्स् आर् मोर् इस् कॉल्ड् प्लुत नौ इन् दिस् ऊकाल यु हाव् त्री उकारास् जायिनिङ्ग् वन् इस् ह्रस्व दीर्घ प्लुत आदौ ह्रस्वस्य उकारस्य दीर्घ उकारेण सह सन्धौ कृते उ प्लस् उ विकम् अकस्रवर्णे दीर्घः दीर्घादेशे सति उ इति भवति अस्य उकारस्य पुनः प्लुत उकारेण सह पुनः सवर्णदीर्घादेशे उ इत्येव शिष्यते ऊकालः नाम उकार ऊकार ऊकाराणां यः कालः उश्च ऊश्च ऊश्च वः वः इति उ इति शब्दस्य उ इति शब्दस्य प्रथमाविभक्तौ बहुवचनम् अतः उश्च ऊश्च ऊश्च वः वां कालः उकारत्रयाणां कालः इव कालः एतेषाम् उच्चारणे यः कालः अपेक्षितः तादृश एव कालः यस्य उच्चारणे भवति सः अच तादृशः स्वरः क्रमात् इत्युक्ते उ इति उच्चारयितुं यः कालः अपेक्षितः तस्मिन्नेव काले यः उच्चार्यते सः ह्रस्वः इत्युच्यते उ इति उच्चारणस्य यः कालः तस्मिन्नेव काले उच्चार्यमाणः अच् दीर्घः इत्युच्यते ऊ इति उच्चारणस्य यः कालः अपेक्षितः तस्मिन् काले उच्चार्यमाणः वर्णः प्लुतः इत्युच्यते ऊकालः अच् ह्रस्वदीर्घप्लुतः एतेषाम् उच्चारणसदृशः कालः यस्य तस्य स्वरस्य क्रमात् ह्रस्वः दीर्घः प्लुतः इति संज्ञाः भवन्ति सो एनी अच् एनी स्वरा विच् केन् बि प्रनौन्स् इन् द सेम् टैम् एस् उ इस् कॉल्ड् ह्रस्व एनीथिङ्ग् विच् केन् बि प्रनौन्स् इन् द सेम् टैम् एस् उ इस् कॉल्ड् दीर्घ एण्ड् एनीथिङ्ग् विच् केन् बि प्रनौन्स् इन् द सेम् टैम् एस् उ इस् कॉल्ड् प्लुत नौ वै डिड् पाणिनी टेक् उ इस् द क्वेश्चन् उकारः एव किमर्थं स्वीकृतः आकालः अच् इति किमर्थं नोक्तम् इति प्रश्नश्चेत् प्रकृतौ अस्माभिः यत् श्रूयते तदेव पाणिनिना उपयुक्तं पाणिनि नीडेड् अ स्टाण्डर्ड् टु डिफैन् द ह्रस्व दीर्घ प्लुत सो हि चोस् संथिङ्ग् फ्रम् नेचर् द ह्रस्व दीर्घ एण्ड् प्लुत उकार आल् आफ् देम् केन् बि हर्ड् इन् द काक्स् काल् काक् कुक्कुटः यदा शब्दं करोति तदा ह्रस्व उकारस्य दीर्घ उकारस्य प्लुतस्य अपि श्रवणं भवति तस्मादेव तदाधारीकृत्य पाणिनिना ऊकारः इति उक्तः अन्ये सर्वे अनेन संविहिताः भवन्ति. इदानीम् अकारः उ इत्यस्मिन् काले अ इति उच्चार्यते चेत् सः ह्रस्वः अकारः. उ इति यथा उच्चार्यते तथा इ इति उच्चार्यते चेत् सः दीर्घः ईकारः. ऊ इति यथा उच्चार्यते तथा ऋ इति उच्चार्यते चेत् सः प्लुतः ऋकारः इति निर्णयः. अनेन सूत्रेण ह्रस्व दीर्घ प्लुत इति संज्ञाः विधीयन्ते. सर्वेषां स्वराणां ह्रस्व दीर्घ प्लुत इति संज्ञाः विधीयन्ते. ऊकालोच् ह्रस्व दीर्घ प्लुतः. उश्च ऊश्च ऊश्च वः. वाम् कालः इव कालः. यस्य सः अच् समात ह्रस्व दीर्घ प्लुतसंज्ञः स्यात्. सः प्रत्येकम् उदात्तादिभेदेन त्रिधा. सः प्रत्येकं नाम तादृशः ह्रस्वः दीर्घः प्लुतः इति प्रत्येकं स्वरः उदात्तादिभेदेन त्रिधा. पुनः त्रेधा विभागः क्रियते. आदौ एकः स्वरः आसीत् अज्वर्णः, तस्य त्रेधा विभागः कृतः. पुनः प्रत्येकं त्रेधा विभागः उदात्तः अनुदात्तः स्वरितः. अर्थात् ह्रस्व उदात्तः, ह्रस्व अनुदात्तः, ह्रस्वस्वरितः. दीर्घ उदात्तः, दीर्घ अनुदात्तः, दीर्घस्वरितः. प्लुत उदात्तः, प्लुत अनुदात्तः, प्लुतस्वरितः इति विभागः. आहत्य नवविभागाः जाताः. स्वरेषु नवप्रभेदाः जाताः. उदात्तः अनुदात्तः स्वरितः नाम कः इति चेत् पाणिनिना उच्यते उच्चैरुदात्तः. ताल्वादिषु स्वभागेषु स्थानेषु ऊर्ध्वभागे निष्पन्नः अच् उदात्तसंज्ञः स्यात्. उच्चैः उदात्तः इति छेदः. उच्चैः यः वर्णः, उच्चैः नाम ऊर्ध्वभागे यः वर्णः उच्चार्यते सः उदात्तः. कुत्र ऊर्ध्वभागे इति चेत् ताल्वादिषु स्वभागेषु स्थानेषु. वर्णोत्पत्तिस्थानानि सन्ति. प्रत्येकं वर्णस्य उत्पत्तौ किञ्चन स्थानं साहाय्यकरं भवति. अतः वर्णस्य उत्पत्तिस्थानम् इत्यस्ति. अग्रे उच्यते for each varna there is a particular position which is defined to pronounce it. When you are saying ka, you are pronouncing it from the throat. Aka kakarasya kanthah sthanam. When you are saying cha, you are pronouncing it from the palate, the front portion, the soft palate, soft hard. I'm not sure which is in the front. The front portion of the palate. Palate is the roof of the mouth. So from the front portion, when you are saying cha, the tongue touches the front portion of the palate. That is called talu in Sanskrit. So chakarasya, shavargasya aksharanam sthanam talu. Evam tavargasya aksharanam sthanam murdha. The back portion of the palate is called murdha. So tavargiyanam aksharanam murdha sthanam. एतत् सर्वम् अग्रे आगच्छति. हि डिफैन्स् एव्रिथिङ्ग्. द वाट् आर् द स्थानस् फार् ईच् लेटर् आर् डिफैन्ड् नेक्स्ट् ऐम् जस्ट् टेलिङ्ग् यू फार् यू टु नो दट् देर् आर् पर्टिक्युलर् पोजिशन्स् फ्रम् वेर् द वर्णास् आर् ओरिजिनेटिङ्ग्. सो इन् दोस् पोजिशन्स् ताल्वादिषु स्वभागेषु स्थानेषु प्रत्येकं स्थाने भागद्वयमस्ति, ऊर्ध्वभागः अध्वभागश्चेति. ईच् आफ् दोस् स्थानास् लैक् कण्ठ हेस् टु पार्ट्स् अन् इस् द अप्पर् पार्ट् अण्ड् द लोवर् पार्ट्. ताल्वादिषु स्वभागेषु स्थानेषु ऊर्ध्वभागे निष्पन्नः अस्य दट् स्वर विच् इस् कमिङ्ग् फ्रम् द अप्पर् पोर्शन् उदात्तसंज्ञः स्यात् इस् काल्ड् उदात्त. स्वर विच् इस् प्रोनौन्स्ड् फ्रम् द अप्पर् पोर्शन् आफ् द स्थानास् इस् काल्ड् उदात्त. उच्चैः उदात्तः. ताल्वादिषु स्वभागेषु स्थानेषु ऊर्ध्वभागे निष्पन्नः अच् उदात्तसंज्ञः स्यात्. उदाहरणं दत्तमस्ति आ ए इति. स्तुतः अस्माभिः उदात्तानुदात्तस्वरितादयः स्वराः वेदेषु एव दृश्यन्ते. वेदानाम् उच्चारणे एतेषां स्वराणां विभागः ज्ञायते. लेखनसमये उदात्तस्वरस्य किमपि चिह्नं न भवति. जस्ट् प्लेन् लेटर्स् विथौट् एनी सिम्बल् अबोव् आर् बिलो आर् interpreted as udatta swara. Nichai anudattaha. Agrimam sutram bhavati nichai anudattaha iti chedaha. Sutartha dikshitaihi varnitaha spashtam. Spashtam ityukte kim? Talvadishu sabhageshu sthaneshu adhobhage nishpannaha aj anudatta samyaha syat. Purvatra urdhva bhagaha asi. तेष्वेव स्थानेषु अधोभागतः यः वर्णः उच्चार्यते सः अनुदात्तवर्णः इति कथ्यते. अर्वाङ् इति दत्तमस्ति उदाहरणम्. लेखनसमये अनुदात्तस्वरस्य अधोभागे एका रेखा लिख्यते. देर् इस् ए हारिजोण्टल् लैन् बिलो अ स्वर. इफ् देर् इस् एनी हारिजोण्टल् लैन् बिलो अ स्वर इट् मीन्स् दट् स्वर इस् अनुदात्त. उच्चैरुदात्तः नीचैरनुदात्तः समाहारः स्वरितः. समाहारः उदात्तत्व अनुदात्तत्वे वर्णधर्मौ समाह्रियेते यस्मिन् सः अच स्वरितसंज्ञः स्यात्. दट् स्वर इन् विच् द उदात्तत्व एण्ड् अनुदात्तत्व आर् कम्बैनिङ्ग्. समाहार मीन्स् टु कम्बैन्. So a svaritaswara is one which has both udattatva and anudattatva. Udattatva anudattatve varna dharma. Udattatvam iti udattavarnanam dharma. Anudattatvam iti anudattavarnanam dharma. Udattatva is a quality which is seen in any udattaswara. Anudattatva is a quality which is seen in any anudattaswara. So when you join these two, when both these qualities combine, the swara which you get is called svarita. उदात्तत्व अनुदात्तत्वे वर्णधर्मौ समाह्रियेते यस्मिन् सः अच स्वरितसंज्ञः स्यात्. सो नौ ही डिफैन्ड् वाट् इस् उदात्त, वाट् इस् अनुदात्त एण्ड् वाट् इस् स्वरित. बट् वेन् ही सेस् कम्बैनिङ्ग्, वाट् इस् द काम्बिनेशन् इस् द नेक्स्ट् क्वश्चन्. सो तस्यादित उदात्तमर्धह्रस्वम्. तस्य आदितः उदात्तम् अर्धह्रस्वम् इति चत्वारि पदानि. तस्य आदितः, तस्य नाम स्वरितस्य, समाहारस्वरितः इत्युक्त्वा अनुपदमेव उच्यते पाणिनिना. तस्य आदितशकम् किम् इत्युक्ते तस्यादित उदात्तम् अर्धम् इति वक्तव्यमासीत् इति दीक्षितानाम् अभिप्रायः. स्वरितस्वरे आदौ अर्धम् उदात्तम् बोध्यम्, उत्तरार्धम् तु अनुदात्तम्. स्वरितस्य आदौ अर्धम् उदात्तम् बोध्यम्, उत्तरार्धम् तु परिशेषाद् अनुदात्तम्. दीक्षितस्वे द सूत्र पाणिनि टेल्स् यू दट् तस्य आदितः उदात्तम् अर्धह्रस्वम्. तस्य मीन्स् इन् द स्वरितस्वर. The first hraswa part, a half hraswa is udatta, is what Pajani says. The first half hraswa means ardham matra kala in any sarita swara will be udatta, and the remaining portion, whatever is there, is anudatta, is what the sutra says. But Dikshita says, the hraswa need not be there. Pajani means only saritasya adav ardham, half of any sarita swara is udatta. The remaining half is anudatta. Means if you have a hraswa swarita, if there is a hraswa swara with the swarita, then there is no confusion. The first half is udatta, the second half is anudatta. If it is a dirgha, if there are two matras, according to Dikshita, the first half, that is the first matra is udatta and the second matra is anudatta. So this is a Vedic thing. There are other pratishakhyas which tell you that only ardha matra is udatta and one and a half matra is anudatta. According to Dikshita, according to the tradition that Bhattoji Dikshita follows, half, anything, if it is two matras, half is udatta, half is anudatta. That is, one matra is udatta and one matra is anudatta. Paritasya adav ardham udattam bodhyam, uttarardham tu parishesha anudattam. लेखनसमये स्वरितस्वरस्य उपरि ऊर्ध्वभागे एका रेखा लिख्यते. देर् इस् अ वर्टिकल् लैन् अबोव् द स्वर. इट् इण्डिकेट्स् अ स्वरितस्वर. सो एक्चुअलि प्रनौन्सिङ्ग् दीस् उदात्तानुदात्त स्वरित इस् पासिबल् ओन्लि फार् दोस् हू हव् लर्न्ड् द वेदास्. इन् द वेदास् यु हियर् आल् दि स्वरास् उदात्त अनुदात्त स्वरित. वाट् एवर् द एक्साम्पल्स् आर् गिवन् इन् द कौमुनि, if you have learned the Vedas, you will obviously know to read them. It's not, I don't know how I can tell. So, but you can just look, any swara which has a line below is anudatta. Anything which has a line above is svarita. And the plain swaras without any symbol is an udatta. अतः इदानीं स्वरेषु नवप्रभेदाः जाताः. कथम्? आदौ ह्रस्व दीर्घ प्लुत इति प्रत्येकं स्वरस्य त्रयः भेदाः, ततः एतेषां सर्वेषां त्रयाणामपि पुनः त्रयः भेदाः, उदात्तः अनुदात्तः स्वरितश्चेति. आहत्य 3×3 इस् 9 वेरैटीस् यु गाट् फ्रम् 1, स्टार्टिङ्ग् यु स्टार्टेड् फ्रम् 1 विच् इस् अ. First, what you did, you said it has 3 types. If you pronounce that letter in one matra, it is hrasva. If you pronounce it as a, it is dirgha. If you pronounce it as a, it is pluta. In each of these, you did again 3 types. If you pronounce it from the upper portion, a is udatta. From the down portion is anudatta. And that which is a mixture is called a swarita. So there is hrasva dirgha pluta into udatta anudatta swarita. Ahatya nava swaraha jataha. I think I'll stop here for today. If anybody has any questions, you can ask. Can you?
Vasuji has a question, Swami. Ha. So does Pratik.
Pratik, unmute them, please.
Yes, Pratik.
Namaste, Mahodaye. Itad yat antimum sutram pathitam kila, tasya dita udattam ardha rasvam. Tasya sutra se itopi kinchit spashtam vivaranam kartum shakyate va adhuna?
Tasya adita udattam ardha rasvam. Swarita swaraha namaha. समाहारः स्वरितः इत्युक्तम्. इत्युक्ते यस्मिन् स्वरे उदात्तत्वमपि अस्ति अनुदात्तत्वमपि अस्ति सः स्वरितः.
एवं
किन्तु कः भागः उदात्तः, कः भागः अनुदात्तः? हौ मच् आफ् स्वरित इस् उदात्त अण्ड् हौ मच् इस् अनुदात्त इस् द क्वेश्चन्. अतः पाणिनिः वदति तस्य आदित उदात्तम् अर्थह्रस्वम्. आदितः फ्रम् बिगिनिङ्ग्, अर्धह्रस्वम् उदात्तम्. हाफ् ह्रस्व इस् कॉल्ड् उदात्त. दीक्षित अर्ध ह्रस्व न, इट इज अर्ध मीन्स द फर्स्ट हाफ इज उदात्त, द सेकेंड हाफ इज अनुदात्त इज वॉट दीक्षित. त्वरितस्य आदौ अर्धम उदात्तम बोध्यम, उत्तरार्धम तु परिशेषाद् अनुदात्त. उत्तरार्ध इज
एवं स्पष्टम्. धन्यवादः. आम् आम् ज्ञातं. धन्यवादः.
Vasuji,
yeah, unmuted him. My question is, can you, how this Pratyahara 44, Rang Pratyahara, absorbs the La?
Ra Pratyahara, how are you making the Pratyahara is, you are joining the higher varat Ra, Repha, with Lakara. I mean, with the Akara. One second, if I should show you. Just try to demonstrate it. Meanwhile, Priya has a question. If I demonstrate these sounds, the udatta, anudatta, swarita, I cannot, but I'll ask my friend to demonstrate it. By the time I'll ask, I'll answer Vasuji's question later. By then,
vilambha na bhavati, samyak samaya. साक्षात् अष्टवादने तत्र उपस्थितिः भवेत्.
वेङ्कट सर्, ऐ एम् अन्म्यूटिङ्ग् यू, केन् यू प्लीज़् डेमान्स्ट्रेट् द उदात्त अनुदात्त अण्ड् स्वरित.
आगच्छन्ति वा? नो चेत्
ऐ थिङ्क् इस् गोना कॉल. इस् देयर एनीबडी हियर हू हैज़ लर्न्ड द वेदास् एण्ड् केन् डेमान्स्ट्रेट् दिस् फॉर अस्? Please raise your hands if you are able to. So,
we can ask Karthik.
Oh, okay. Karthik.
Hey, Karthik.
Karthik?
Yeah. just a second. I'll try my best. I've actually lost touch with the chanting, but I can. So if for instance we take the gananam tva that verse, then we say it this way. We say om gananam tva ganapati gum havamahe. So there the initial ga actually is pronounced as an anudata because we start from below. So we say om gananam tva ganapati gum, so the ga goes below, and then the na it's actually pronounced normally, which is the udata. And then the in the Ganapati Gum, the pa goes up. That is Aswarita.
So next also, I think, Kavinka, which demonstrates three in an order. You have
Udata, Udata,
Swarita.
Om Ganana Antwa Ganapati Gum Havamahe Kavinka Veenamu Pamashravastamam. Yeah, so the Kavim, the ka is Anudata. The Veen is Udata. And then the ka in Kavinam, it again is going to be Swarita. Kavinka Veenamu Pamashravastamam. So that's how it is.
So when he pronounces it, you hear the ka is pronounced out. Kavinka, the later ka goes up, which is Swarita. The one which is below is this, and the udata is pronounced normally. Okay, so now I think I have to just answer the Tejasvi has a question. Please unmute him.
Yes, Tejasvi.
Yes. What I have learned in the Vedas is, at least what I have been taught is not according to what is Panini tells or what we have been now discussing.
Ha.
For example, if you take the Purusha Sutta first verse, Sahasra Shirsha Purushaha. Sa, the initial sa is anudatta.
Mm-hmm.
Ha is udatta. Sra is swarita. Sa, the initial sa has an a matra, which is anudatta. The third akshara, sra, which also has an a, is swarita.
Mm-hmm.
So according to these rules, if it were just the articulation points in the mouth, both of them by definition be the same swara. But in the Vedas, as I was taught, it is not to do with the points of articulation, but rather it is just the pitch, lower pitch, middle pitch and high pitch. And this can be easily demonstrated on any instrument, musical instrument, just with three swaras.
Swaras and Vedas, as they are pronounced, are the three pitches, and Panini defines it. So theoretically, they should correspond to the three pitches. But then I am not an authority for this. So
okay.
If there is anybody in this group who can explain how the Vedas, because for Vedas, even Vyakarana has one thumb rule. That is, in the Vedas, it is only parampara. How they teach you, you tell. No arguments over the Vedas. So, I think these are just for us. For now, the purpose is only to know that each Swara has three Vedas. More than that, for Vyakarana purposes, we don't need. And I do not have any authority to actually answer these questions. So, let's just keep this.
I think that,
if there is any Vedic scholar, it's better to discuss with them.
Yeah. Yes.
Now coming back to Vasuji's question, I'll share my screen. Tasya prashnaha asi, ara pratyaharena rephalakarayoha sangrahaha katham bhavati. Atta pashyantu, hayavarat katha lan, iti maheshwara sutra dvayam asti. Katham tatra varnanam chedaha, h, a, y, a, v, a, r, a, t, l, a, अत्र सर्वत्र अकारः उच्चारणार्थः अतः तस्य ग्रहणं न भवत्येव प्रत्याहारेषु इतां न ग्रहणम् इत्युक्तम् अतः तकारस्यापि ग्रहणं न भवति इदानीम् अस्य रेफस्य अनेन अकारेण सह प्रत्याहारः ऋ अ र मध्ये के वर्णाः सन्ति अकारः उच्चारणार्थः तस्य ग्रहणं नास्ति तकारः इत्संयोगः तस्यापि ग्रहणं नास्ति, लकारस्य ग्रहणम् अस्ति. ततः स्वस्य च रूपस्य आदिः अन्त्येन सहित मध्यगानां संन्यास्य स्वस्य च रूपस्य इत्यत्रात् रेफस्यापि ग्रहणं भवति. एवं रप्रत्याहारेण रेफस्य लकारस्य च ग्रहणम्. वसुजी
स्पष्टम्. My doubt was because of the fact that all other pratyaharas seem to use the halantyam. Here is
This is a special one because it uses the anunasika akara.
Anunasika. I could not recognize that as that. Thank you.
Lalita?
Hello, Soumya ji. Those pratyaharas ending with an, in and yan, in that how do we take that ha ya vara is okay, but la and a is also it over there. So it will be la with the, only the half la will be taken. When la
so everywhere it is only the half thing that is taken. Let's, let me make it clear. Everywhere when I am saying ha ya vara, I am actually taking only hu yu vuru. The earth is only uttana. For easy pronunciation, we say it as ha-ya. But actually, in yan, it is only yu, vu, ru, lu. The half letters are only considered, not the full letters. Nowhere. Everywhere, it is only the half letters.
Okay, now it's clear. That's how that ra pratyahara is formed because of that. Oh, okay. Thank you.
Exactly, yeah. Everywhere, it is the half. For vyanjanas, it is only the half letter which is considered.
Soumya ji, it's 8 minutes past 9 o'clock.
Yeah, correct.
Can we stop today?
Sure. I'm sorry. If there is no more questions, if you have any questions, please mail me so that either I can reply to you or I can address them in the next class. There is just one question which Priya asked: what is the meaning of Arvang? Arvachi is generally means a direction. But here in this particular context, I do not know. I'll just look it up and tell. Sarvebhyah dhanyavadaha.
Sorry, Soumya ji, the recordings, they are now available on a new website.
Exactly. So can you please tell?
I will send an email after class giving you the URL for the website. And you should be able to download all recordings from there.
धन्यवादाः सर्वेभ्यः. पुनः कक्षा शुक्रवासरे 8 वादने.